हेलो।
हेलो
हेलो
तनेश, चल रही?
और इसमें
हाँ, तो तोफिक हुसैन
हाँ
खाया हुई प्लस सॉल्यूशन डर जित नंबर में डबल लोस।
ये प्लस
हाँ, वी प्लस सॉल्यूशन डर जित ना तेरे जित अच्छा नहीं है ट्रांसपोर्ट था कि बलों से अच्छा था काम ना आह लाइ द मोल आश्कर खारुश लाइ ये तैला ना गरीजो में तो या में दिन ना खाई आंदा आंदू थरी पे मन कोरता हो 10% सियोर खजा ले आरा 2% मेले साल आश्कर खारुच मन कोरता भी होना ነይ እነንም ደግሞ ታሳቢ ያደረግነው አሁን ላይ አሽከርካሪዎች የሚገባቸውን ጥቅም እያገኙ ነው ብለን አናስብም። ለምሳሌ ሕክምና ጡረታ፣ እንዲሁም ሌላ ጥቅማ ጥቅም ስለሌላችሁ ይህንን በጋራ የምትቆጥቡበትና አቅም የምትፈጥሩበትን ስርዓት ነው ይዘን የመጣ ነው። እንዴት ሀሳቡ ሀሳባችን እንዴት አዩት?
ሀሳቡ አሪፍ ነው፣ ግን ያው
ወደ ስራ ሲገባ እኮ የተባለውን አንተ ሁሉ እንዲህ ነው።
አይ አሁን ላይ እኛ ስራ ጀምረናል። የተመዘገቡና ስራ የጀመሩ ሾፌሮች
አሁን ምንድን ነው እንትኑ ነው 10% ያልከው ምንድን ነው? እንትን ነው ትሪ ፒክአፕ ነው
እያንዳንዱ ከሁሉም ትሪፕ ከስትሪት ፒክአፑም ከኮል ሴንተሩም የሚቆረጠው 10% ነው፣ ግን 4% መልሶ ለእናንተ ለአሽከርካሪዎች ነው የሚቆጠበው።
10% ይቆረ 6% ማለት ነው። በቴሌግራም ነው መመዝገብ የሚቻለው?
በቴሌግራም መመዝገብ ይችላሉ። ቁጥር ልክሎት አለው። በተጨማሪም ደግሞ ዊ ፕላስ ሶሉሽን ፕሮቫይደር የሚል አፕሊኬሽን አለን። እዛ ላይ አውርደውም መመዝገብ ይችላሉ።
በቃ ይቻላል። በቃ
የቴሌግራም ቁጥር ልላክሎት?
ላክልኝና ሞክሯለሁ።
እሺ፣ በቃ ቴክስት አደረግሎት አለው። ቴክስት በማድረግሎት ቁጥር ዶክመንት መላክ፣ ማንኛውም ሀሳብ አስተያየት ጥያቄም ካሉት ምንቀበል ይሆናል። እሺ፣ እናመሰግናለን። መልካም ቀን።